ओम नमो भगवते वासुदेवाय। अथ द्वादशोऽध्यायः। रहुगण उवाच, नमो नमःकारण विग्रहाय स्वरूपतुच्छीकृत विग्रहाय, नमो वधूत द्विजबन्धुलिंग निगूढ नित्यानुभवाय तुभ्यं, ज्वरामयार्तस्य यथा गदं सत् निदागदग्धस्य यथा हिमाम्भः, कुदेहमाना हि विदष्ट दृष्टेर्ब्रह्मन् वचस्ते मृतमौषधं मे, तस्माद् भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चादधुना सुबोधम्। अध्यात्मयोगग्रथितं तवोक्तमाख्याहि कौतूहलचेतसो मे, यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलं, नय्यञ्जसा तत्त्वविमर्शनाय भवानमुस्मिन् भ्रमते मनो मे। ब्राह्मण उवाच, अयं जनो नाम चलन् पृथिव्यां, यः पार्थिवः पार्थिवकस्य हेतोः, तस्यापि चाङ्घ्रियोरधिगुल्फजङ्गा, जानूरुमध्योरशिरोधरांसाः, अंसेऽथि दार्वी शिबिका च यस्यां, सौ वीरराजेत्यपदेशास्ते, यस्मिन् भवान् रूढनिजाभिमानो राजास्मि सिन्धुष्विति दुर्मदान्धः, शोच्यानि मांस्त्वमथि कष्टदीनान्, विष्ट्यानि गृह्णन्निर्नुग्रहोऽसि, जनस्य गोप्तास्मि विकथमानो न शोभसे वृद्धसभासुधृष्टः, यदाक्षितावेव चराचरस्य विदामनिष्ठां प्रभवं च नित्यं, तन्नामतोऽन्यद्व्यवहारमूलं निरूप्यतां सत्क्रिययानुमेयम्। एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानात् परमाणवो ये अविद्यया मनसा कल्पितास्ते, येषां समूहेन कृतो विशेषः, एवं कृशं स्थूलमणुर्बृहद् यत् असच्च सज्जीवमजीवमन्यत्, द्रव्यस्वभावाशयकालकर्म नाम्ना जया वेहि कृतं द्वितीयम्, ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यं, प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति। रहुगणैतत्तपसा न याति न चेद्यया निर्वपणाद् गृहाद्वा, न छन्दसा नैव जलाग्निसूर्यैर्विना महत्पादरजोऽभिषेकम्। यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः, निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतिं सतीं यच्छति वासुदेवे। अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्धः, आराधनं भगवत इह मानो मृगो भवं मृगसङ्गाद्धतार्थः, सा मां स्मृतिर्मृगदेहेऽपि वीर कृष्णार्चन प्रभवानो जहाति, अथोऽहं जनसङ्गादसङ्गो विशङ्कमानो विवृतश्चरामि, तस्मान्नरो सङ्गसुसङ्गजात ज्ञानासिनेहैव विवृक्नमोहः, हरिं तदीया कथनश्रुताभ्यां लब्धस्मृतिर्यात्यतिपारमध्वनः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्धे ब्राह्मणरहुगणसंवादे द्वादशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।